एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। नेकपा माओवादी केन्द्रेण नेकपा एकीकृत समाजवादी दलेन च सहितैः विभिन्नैः दलैः सम्मिलितस्य नेपाली कम्युनिष्ट दलस्य घोषणा विहितास्ति। काष्ठमण्डपस्य भ्रिकुटी मण्डपे ह्य आयोजितेन एकता राष्ट्रिय सम्मेलनेन नेकपा माओवादी केन्द्रेण नेकपा एकीकृत समाजवादी दलेन च सहितेषु विभिन्नेषु दशसु दलेषु एकताम् विधाय नेपाल कम्युनिष्ट दलस्य घोषणा विहितास्ति। नवसंगठितस्य नेपाली कम्युनिष्ट दलस्य संयोजक पदे पुष्पकमल दाहाल प्रचण्ड, दलस्य सह संयोजक पदे माधव कुमार नेपालश्च प्रचितौ स्तः। एकीकृतस्य दलस्य मार्गनिर्देशक सिद्धान्त मार्क्सवाद लेनिनवादश्च कार्यक्रम नेपाली विशेषताया वैज्ञानिक समाजवाद इति निर्धारितौ वर्तते। दलस्य निर्वाचन चिह्नम् पञ्चकोणीय तारा निर्धारितम् अस्ति। एकीकृत दलस्य महाधिवेशनम् आगामिनाम् षड्मासानाम् अभ्यन्तरे आयोजयितुम् सहमतिः दत्तास्ति। एकता प्रक्रियायाम् सहभागिनः दलस्य वर्तमान केन्द्रीय समितिनाम् सदस्यान् समाविश्य पारस्परिक सहमतौ केन्द्रीय समिति संघटयिष्यति। केन्द्रीय समितौ संयोजकः सहसंयोजकश्च पदे भविष्यतः। प्रदेश जनपद पालिका वडास्तराणाम् सर्वासु समितिष्वपि संयोजकस्य सहसंयोजकस्य च व्यवस्था विधास्यते। दल समितिनाम् संचालनम् सामूहिक नेतृत्वस्य प्रणाल्याम् आदेतायाः जनवादी केन्द्रीयतायाः सिद्धान्तस्य अनुरूपम् भविष्यतीति उल्लिखितम् वर्तते। घोषणा कार्यक्रमे नवसंगठित नेपाली कम्युनिष्ट दलस्य संयोजकः पुष्पकमल दाहाल प्रचण्ड, दशवाम घटक दलानाम् युगपद मेलनस्य प्रथम तथ्यम् भवितुम् शक्नोतीति च चयन। ह्यस्तन दिवस नेपाली वामान्दोलनस्य ऐतिहासिक दिनम् अस्तीति न्यश्चिनोत्। सैव संयोजक प्रचण्ड एकतायाम् अतिरिक्त दलानामपि सहभागितायै अन्य दलैः सहापि समन्वयम् विधातुम् दलम् तत्परम् वर्तते इति समस्पष्टयत्। दलस्य सहसंयोजक माधव कुमार नेपाल नवसंगठितम् दलम् नेपालस्य वामान्दोलनस्य मूलप्रवाहकम् जनताया आशाया केन्द्रम् च भविष्यतीति अभासत। तदवसरे नेता झलनाथ खनाल वामदलानाम् एकता वर्तमानावश्यकतास्तीति धारणाम् व्यक्तवान्। प्रधानमन्त्रिणः सुशीला कार्किणः पूर्वराष्ट्रपतेः डाक्टर रामवरण यादवस्य च मध्ये ह्य शिष्टाचार मेलवार्ता सम्भूतास्ति। बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य विहितायाम् मेलवार्तायाम् एतयोर्मध्ये आगामिनः निर्वाचनस्य पूर्वकार्याणाम् राजनीतिक वातावरणस्य च विषयेष् विमर्शनम् सम्भूतम् आसीत्। मेलने प्रधानमन्त्री कार्की आत्मना जेन्जी युवसन्ततेः आन्दोलनस्य भावनायाः अनुसारेण देशे सुशासनम् संस्थाप्य जननिर्वाचित सर्वकाराय शक्तेः सत्ताया हस्तान्तरणाय प्रवर्तितम् अस्तीति उदैरयत्। मेलने पूर्वराष्ट्रपतिः डाक्टर यादवः सर्वकारस्य पक्षतः निर्वाचनस्य कृते विधीयमानानाम् पूर्वकार्याणाम् विभिन्न पक्षैः सह विहितस्य संवादस्य च प्रशंसाम् कुर्वन् सर्वैः राजनीतिक दलैः निर्वाचने सहभागिभिः भाव्यम् केनापि निर्वाचनात् न पलायनम् विधेयमिति धारणाम् व्यक्तवान्। मेलने अर्थमन्त्री रामेश्वर खनालः, संचार सूचना प्रविधि मन्त्री जगदीश खरेलश्च सहभागिनौ आस्ताम्। कास्की जनपदस्य पोखरा बचत तथा ऋण सहकारी संस्था लिमिटेड नाम्न्याः वित्तीय संस्थायाः वित्तम् अपचालितम् अस्तीति आरोपे प्रहरिणा सहकारी संस्थायाः संचालकेन समितेः अध्यक्षेण सुरेन्द्र बहादुर गोदार इत्यनेन सहिताः सप्त जनाः ह्य नियन्त्रिताः वर्तन्ते। अध्यक्षेण गोदार इत्यनेन सह सचिवः दिलबहादुर केसी, कोषाध्यक्ष हिरामणि दाहाल, सदस्य दुर्जे तामाङ, व्यवस्थापक भीष्म प्रसाद गुरूङ, आपण प्रमुख वेदी प्रसाद सुवेदी पूर्व सचिव वर्तमान सदस्यश्च इन्द्र प्रसाद दुवा च निगृहिता सन्ति कास्की जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। एतैः सहकारी संस्थायाः आसन्नैकोननवतिः कोटयः रूप्यकाणि अपचालितानि सन्तीति दृष्टम् अस्तीति प्रहरिणा ज्ञापितं वर्तते। मधेस प्रदेशस्य मुख्यमन्त्रिणा जितेन्द्र प्रसाद सोनार सुनल इत्यनेन परश्वः कार्तिकस्य द्वाविंशे दिवसे विश्वासस्य मतं ग्रहीष्यते। मुख्यमन्त्रिणा सोनल इत्यनेन ह्य मधेस प्रदेश सभा सचिवालये पत्रं सम्प्रेष्य परश्वः कार्तिकस्य द्वाविंशे दिवसे शनिश्चरवासरे विश्वासस्य मतस्य ग्रहणस्य कृते व्यवस्थां विधातुम् अनुरुद्धम् वर्तते। लोसपा दलस्य नेता सोनल जसपा दल नेपालस्य जनमत दलस्य तात्कालिक माओवादी केन्द्रस्य लोकतान्त्रिक समाजवादी दल नेपालस्य तात्कालिक नेकपा एकीकृत समाजवादी दलस्य च समर्थनेन गताश्विन मासस्य एकोनत्रिंशे दिवसे मधेस प्रदेशस्य मुख्यमन्त्रीपदे नियुक्तः आसीत्। बझाङ जनपदस्य थलारा ग्रामपालिकायाः द्वितीय वडा क्षेत्रस्य दंगाजी स्थाने ह्य सायं ट्याक्टर यानस्य दुर्घटनायां जनद्वयं घटनास्थले एव मृतं वर्तते चेत् ट्याक्टर यान चालकः गभीरेण आहतोऽस्ति। दुर्घटनायां दंगाजी स्थान निवासिनौ 64 वर्षीय पौमले खाती 68 वर्षीय जसे खाती च मृतविति दंगाजी स्थानस्य निवर्तमान वडाध्यक्ष हेम खड्का असूचयत। दुर्घटनायां कैलाली जनपदस्य भजनी स्थानस्य चालक खुशीराम चौधरी गभीरेण आहतो वर्तते। ट्याक्टरयानं मार्गाद 50 मीटरमितम् अध निपतितम् आसीदिति प्रहरिणा ज्ञापितम् वर्तते। थाइल्याण्ड देशस्य नेपाली राजदूतावासेन म्यानमार क्षेत्रे असहायावस्थायां स्थिता 14 नेपालिन उद्धृत्य स्वदेशं प्रेषिता वर्तन्ते। विभिन्नेष् प्रलोभनेष् निपत्य विभिन्न माध्यमैः म्यानमार क्षेत्रं प्राप्य तत्र अवैधरूपेण संचालितेष् अनलाइन स्क्यामिंग केन्द्रेष् कार्यरताः 14 नेपालिनः म्यानमार स्थानस्य थाइल्याण्ड देशस्य च सम्बद्ध निकायानां समन्वयेन सहयोगेन च म्यानमार देशस्य म्यावडी स्थानात् उद्धृत्य स्वदेशं प्रेषिता सन्तीति तत्र तेन दूतावासेन ह्य प्रकाशितायां विज्ञप्तौ ज्ञापितं वर्तते। काष्ठमण्डप उपत्यकायाः विभिन्नेषु 21 सार्वजनिक स्थलेषु ह्यस्तनात् दिवसात् प्रारब्धायाः निःशुल्कं वाईफाई अन्तर्जाल सेवायाः संचार सूचना प्रविधि मन्त्रिणा जगदीश खरेलेन स्थलगतं निरीक्षणं विहितं वर्तते। मन्त्रिणा खरेलेन ह्य नूतन वसयान विश्रान्ति स्थलम् महाराजगंजवर्तिनम शिक्षण चिकित्सालयम पाशुपत क्षेत्रम त्रिभुवन अन्तर्राष्ट्रिय विमानस्थलम च प्राप्य सर्वकारेण संचालितायाः निःशुल्कम् अन्तर्जाल सेवायाः निरीक्षणं विहितं वर्तते। निरीक्षणस्य क्रमे मन्त्रिणा खरेलेन उपत्यकायाः विभिन्नानां सार्वजनिक स्थलानां पश्चात् दुर्गम क्षेत्रेष्वपि निःशुल्कम् अन्तर्जाल सेवायाः प्रापणत्वेन सर्वकारेण कार्यं विधीयमानम् अस्ति इति संसूचितम् आसीत्। इति समाचाराः।